Ja, Schlowisch. Gjeta da përqyram.
Angjov, bërqyu, lej, krut, përqyu, fërca, përqyu, mot, bramër, plani, klodi, bot, bërqyu, bërqyu, bërqyu. Angjov, bërqyu, lej, krut, përqyu, fërca, përqyu, mot, bramër, plani, klodi, bot, bërqyu, bërqyu. Për e gjithë orë klotë se dërti tërë tërë kapi. Që më dëgni gjithë kepi stavë së në tanë rëru ka maki. Vesh në gjike avtarë që dhe më në ki gati ke gjo sati. Guru sëp ke gjo vë në kete sheshe vë për që ramë avinashi. Vë në ribi qute to lakë të banë që këshu me agni gjerë apë rëmarë. Kullë nashë qëtëri i kisër barë pa u qasë ba me gjithë hakarë. Guru ka i gjane vale gjane male dronë të vobi të sheshe i nike. Kërle bi qëllë se i nise ta si khatë e bishëm bi i nise sike. Ako me krodi ki lali ti e si se brakët e në zroko liqe. Pura së të pashqim se uftar se dakshira disha me pranë të kiqe. Vohe përshu ram. Përshu 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 ram. Përshu 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 ram. Përshu 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 ram. Përshu ram përshu ram. Tandov me t'ju hey. Përshu, fërca, përshu, mot, bramër, plani, klodi, bot, mërtju, mërtju, mërtju. Tandov, mërtju, bëj, krut, përshu, fërca, përshu, mot, bramër, plani, klodi, bot, mërtju, 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 mot.
Klodi mera sobavo mene shishe karta meri mata ka apitu ki avo kisi karen vash patthar me varna vahi ban jata chakshu samakshu dekha ta drashya paashan roop sabhi brata ka tabhi aagya mani mene pita ki shad bhanna socha jo chata tha kiya jo bola pita shri ne ho kya khush wo kahe vardane kaho punar jeevit meri mata ho brata ho smriti koi bhi dhyane na ho naam mera ram rakha gaya bole bole ye farsa saath rakho kandhe pe ram ke rakha gaya parshu to mujhe parshu ram kaho
parshu ram. Parshu 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 ram. Parshu 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 ram. Parshu 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 ram. Parshu ram parshu ram.
Dekho bhagwan parshuram aa gaye. Bahut krodh mein lagte hain. Kya wo phir kshatriyon ka vadh karenge?
Nahi nahi, unhone indra ko vachan diya hai ki wo ab kabhi bhi kshatriyon par chastra nahi uthayenge.
कापे ते राजा मेरे कोप से डोले ती धरती मेरे क्रोध से जिस ओर पड़ते मेरे कदम ते क्षत्रिय कापे उस ओर से एक बार पहुंचा मैं उस सभा में मन की गति से चल के हवा में खंडित हुआ था जहां शिव धनुष अति क्रोध में था मैं उस सभा में मेरा परिचय अत्यंत क्रोधी बाल ब्रह्मचारी और परशुधारी क्षत्रियों का कुल नाशी मैं ही 21 बार धर का पिसारी सहस्त्र बाहु की भुजाओं को काटा मैंने इस स्पर्श से मृत्यु किसकी मुझे खींच लाई है आई किसकी मरने की बारी है कौन ऐसा उद्दंड जिसने मृत्यु बुलाई तोड़ा धनुष क्रोध से जो अनभिज्ञ मेरे है कौन है तुच्छ ऐसा मनुष्य बोला एक उद्दंडी आप हो शांत तभी कुछ बोलूं मैं प्रातः मेरे श्री राम जिसने तोड़ा धनुष मैं उनका अनुज क्रोध से क्रोध तक टकराने वाला सभा में उपस्थित है राम तो दोनों ही विष्णु अवतारी पर परशु न पहचान पाया था राम को इंद्र को दिया वचन था ये फरसा न उठेगा छत्र सनार को राम ने तोड़ा फिर क्रोध के साथ बढ़ते हुए इस अहंकार को
परसु मौत ब्राह्मण ज्ञानी क्रोधी बहुत मृत्यु 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 तांडव मृत्यु भय क्रोध परशु फरसा परसु मौत ब्राह्मण ज्ञानी क्रोधी बहुत मृत्यु 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 मौत.
शास्त्रों के अनुसार भगवान परशुराम के द्वारा ही कलयुग में भगवान कल्कि को अस्त्र शस्त्र विद्या का ज्ञान प्राप्त होगा. जय दादा परशुराम. श्लोविज.